एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। सत्तारूढस्य नेपाल कम्युनिष्ट पार्टी एमाले दलस्य केन्द्रीय समितेः उपवेशेन महाधिवेशनस्य दिनांकान् निर्धार्य नेतृभ्यो दायित्वम् अर्पितम् वर्तते। उपवेशेन दलस्य दशमम् महाधिवेशनम् आगामिनो वैक्रमाब्दस्य मार्ग मासस्य द्वितीयात् षष्ठम् दिवसम् यावत् आयोजयितुम् निर्णीतमस्ति। बालवाटारवर्तिनी प्रधानमन्त्री निवासे उपविष्टेन केन्द्रीय समितेः तेनोपवेशेन अध्यक्षम् महासचिवम् च विहाय सर्वाणि पदानि निरस्तीकृत्य नेतृणाम् दायित्वमपि निर्धारितम् वर्तते। उपवेशेन दलस्य प्रवक्तोः दायित्वम् प्रदीप कुमार गेवालिने निर्धारितमस्ति। उपवेशेन नेकपा माओवादी केन्द्रात् एमाले दलम् आगतान् रामबहादुर थापा बादल इत्यनेन सहितान् त्रयोविंशति नेतृन् एमाले दलस्य केन्द्रीय समितेः सदस्यान् विधातुम् निर्णीतमिति दलस्य केन्द्रीय सदस्यः सूर्य थापा अज्ञापयत्। एवमेव उपवेशेन 97 प्रदेशानाम् प्रभारिणः सहप्रभारिणश्च निर्धारिताः सन्ति। नेपाली कांग्रेस दलस्य जसपा नाम्नो जनता समाजवादी दल नेपालस्य च मध्ये ह्य सामयिक राजनीतिक विषय विमृष्टम्। नेपाली कांग्रेस दलस्य सभापतेः शेरबहादुर देवाविदस्य बुढा नीलकण्ठ वर्तिनी निवासे दलद्वयस्य शीर्ष नेतृणा मध्ये सम्पन्नायाम् वार्तायाम् सामयिक राजनीतिकावस्थायाः नवीनस्य सत्ता समीकरणस्य च विषययोः विमृष्टमिति कांग्रेस दलस्य प्रवक्ता विश्वप्रकाश शर्मा अज्ञापयत्। जसपा दलस्य अध्यक्ष मन्त ठाकुरः सम्प्रति सन्मिल्य सञ्चलनस्य स्थितिरस्थिति चर्चयन् आत्मभि स्वदलीय धारणा व्यक्त्यति अबोधयत्। स्वदलस्य कारावासे स्थितानां नेतृणां मोचनस्य न्यायिक प्रकरणानां प्रत्यावर्तनस्य नागरिकतायाः समस्यायाः समाधानस्य च विषयाः प्रस्तुताः इति अध्यक्ष ठाकुरः अवोचत। वार्तायां वर्तमान राष्ट्रिय राजनीत्यै मिलित्वा समाधान प्रदानाय एतदर्थं कांग्रेस माओवादी केन्द्र जसपा दलानां एकत्र संस्थितेः परिस्थितेः निर्माणाय च धारणायां व्यक्तायां सत्यमपि किमपि न निर्णीतम् इति कांग्रेस प्रवक्ता शर्मा अज्ञापयत्। जसपा दलस्य नेतृत्वेन सह वार्तायाः पूर्वं ह्य एव कांग्रेस दलस्य पदाधिकारिणां पूर्व पदाधिकारिणां च उपवेशः उपविष्टः आसीत्। सभापतेः देवाभिधस्यैव निवासे सम्पन्ने उपवेशे राष्ट्रिय राजनीतेः कांग्रेस दलस्य अग्रेसरतायां सञ्चालनस्य विषये नेतारः धारणाम् उपस्थापयन् जसपा विधेन जनता समाजवादी दलेन संसदीय दलस्य विधान प्रारूपम् निर्मातुम् द्विसदस्यीय कार्यदलम् संघटितम् वर्तते। जसपा दलस्य ह्य उपविष्टेन संसदीय दलस्य उपवेशेन नेतृणाम् अनिल झा रामसाय यादवाभ्याम् सम्मिलितम् कार्यदलम् संघटितम् अस्ति। विधाने समावेशनीयानि विषयवस्तूनि विमृश्य परामृश्य च पूर्णता प्रदानपूर्वकम् पारितीकर्तुम् उपवेशेन निर्णीतमिति जसपा दलस्य नेता केशव झा अज्ञापयत्। राष्ट्रपतेः विद्यादेवी भण्डारिणः समक्षम् मुस्लिमायोगस्य अध्यक्षेण समी ममिया अन्सारी इत्यनेन मुस्लिमायोगस्य गतार्थिकवर्षस्य वार्षिकम् प्रतिवेदनम् ह्य प्रस्तुतम् वर्तते। राष्ट्रपतेः समक्षम् ह्य एव महान्यायाधिवक्त्रा अग्निप्रसाद खरेलेन च महान्यायाधिवक्तुः कार्यालयस्य गतार्थिकवर्षस्य वार्षिकम् प्रतिवेदनम् प्रस्तुतमिति राष्ट्रपति कार्यालयस्य प्रवक्त्रा रूपनारायण भट्टराई इत्यनेन विज्ञप्तिम् प्रकाश्य ज्ञापितमस्ति। न्याय परिषदः ह्यस्तनोपवेशेन सर्वोच्च न्यायालयस्य न्यायाधीशपदे डा कुमार चुडालस्य नहकुल सुवेदिनश्च नामनी परामृष्टे स्तः। प्रधान न्यायाधीशस्य चोलेन्द्र शमशेर राणाभिधस्य अध्यक्षतायाम् उपविष्टेन परिषदः उपवेशेन पाटन वर्तिनी उच्च न्यायालये कार्यरतम् डा चुडालम् सुर्खेत वर्तिनी उच्च न्यायालये कार्यरतम् सुवेदिन च सर्वोच्च न्यायालयस्य न्यायाधीशपदे परामृष्टुम् निर्णीतमस्ति। उपवेशेन उच्च न्यायालयस्य न्यायाधीशेषु 18 जनाः परामृष्टाः सन्तीति परिषदः प्रवक्ता मानबहादुर कार्की अज्ञापयत्। अखिल नेपाल महिला संघेन अद्य काष्ठमण्डपे बृहद राष्ट्रिय मेलनम् आयोज्यते। अखिल नेपाल महिला संघेन ह्य काष्ठमण्डपे पत्रकार सम्मेलनम् आयोज्य एतद् ज्ञापितमस्ति। भ्रिकुटी मण्डपे आयोज्यमाने राष्ट्रिय मेलने प्रधानमन्त्रिणा केपी शर्मा ओलिना सम्बोधनस्य कार्यक्रमोस्तीति महिला संघस्य मेलनायोजक समितेः संयोजिका सीता पौडेलः अज्ञापयत्। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड चिरकालिक संघर्ष बलिदानाभ्याम प्राप्ताया उपलब्धे निरसनस्य संकटो स्थिति संकेतयन् निगदति संविधानस्य रक्षायै शान्तिपूर्णम् आन्दोलनम् आवश्यकम् वर्तते। राष्ट्रिय दलित पत्रकार संघ नेपालस्य प्रथम महाधिवेशनस्य उद्घाटन समारोहम् पूर्व्यद्युः बुटवल स्थाने सम्बोधयन् अध्यक्ष प्रचण्ड नेपाली कांग्रेस दलस्य नेत्रा गिरिजा प्रसाद कोइराला भिदेन आत्मना च संयुक्त रूपेण धृताया द्वादश सूत्रीय सहमते आधारेण संविधानम् प्राप्तमिति अवोचत। कार्यक्रमे नेपाली कांग्रेस दलस्य नेता बालकृष्ण खाँड अगदत् संविधानस्य संरक्षणम् सर्वकारस्य दायित्वम् वर्तते। प्रहरीणा काष्ठमण्डप महानगरपालिकाया षष्ठ वडा क्षेत्रवर्तिना टुसाल बौद्ध स्थानात् पञ्चशत ग्राम मिताधिक किलोद्वय परिमाणस्य युरेनियम नामाख्येन विकिरण सक्रियक रासायनिक धातु तत्त्वेन सह चत्वारो जना निगृहीता सन्ति। परह्यो निगृहीता इमे महानगरीय प्रहरी कार्यालयेन ह्यः पत्रकार सम्मेलनम् आयोज्य सार्वजनिकृताः। निषिद्धेन अनेन पदार्थेन सह रामेछाप जनपदस्य लिखु तामाकोशी ग्रामपालिकाः पञ्चमवडा क्षेत्रस्य नारायण सिंह तामाङ जानुका तामाङ च रामेछाप बागजोर नगरपालिकाया चतुर्थ वडा क्षेत्रस्य प्रकाश चौवानः सिन्धुपाल्चोक जनपदस्य सुनकोशी ग्रामपालिकाया चतुर्थ वडा क्षेत्रस्य मनोज न्यौपाने च सार्वजनिकृत्य हेय एव महानगरीय प्रहरी परिसरस्य निग्रहणे प्रेषिताः सन्ति। प्रतिनिधि सभाया अन्तर्राष्ट्रिय सम्बन्ध समित्या सप्तानामेव प्रदेशानां पर्यटकीय गन्तव्यस्थलानि निश्चित्य तेषां विकासाय सम्भावनायाः अध्ययने विते सति समृद्धिः अधिगन्तुं शक्यते इति ज्ञापितमस्ति। समितेः ह्यसिंहप्रासादे उपविष्टे उपवेशे समितेः सदस्याः मन्त्रिणां परिवर्तनेन सहैव नीतिकार्ययोजनानाञ्च परिवर्तनस्य प्रचलनेन स्थिर पर्यटने प्रभावः सृष्टो स्थिति तर्कयन्तः एवंविधस्य प्रचलनस्य अन्ताय सर्वकारस्य ध्यानम् आकर्षयन्। नेपाले ह्यः अतिरिक्ताः 61 जना कोरोना संक्रमणात् मुक्ताः सन्ति। ह्य आराष्ट्रम् अतिरिक्तेषु 48 जनेषु कोरोना संक्रमणं पुष्टिभूतं वर्तते। ह्य 1200 द्वादशाधिक 500 च निदर्शनानां परीक्षणं विहितमिति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितमस्ति। महाशिवरात्रौ पशुपतिनाथस्य दर्शनाय आगताः साधुसज्जनाः अद्य दक्षिणां प्रदाय प्रस्थाप्यन्ते। अद्य पूर्वाह्नस्य 9 वादने साधुसतां प्रस्थापनस्य कार्यक्रमः निर्धारितोस्तीति पशुपति क्षेत्र विकास कोषस्य कार्यकारी निर्देशकः डाक्टर घनश्याम खतिवडा ज्ञापितवान्। इति समाचारः।